श्रीरामनाथ भगवंसव सुप्रभातम् श्रीपर्वतेन्द्रकुलवर्धनि सुप्रभातम् श्रीरामलक्ष्मण हनुमदुपासितेश श्रीसेतुनाथ भगवंसव सुप्रभातम् प्राच्य प्रतीच्य जलधी मिलितौ तरङ्गैः मन्द्रम् मृदङ्गनिनदाम् सनुतस्तवेह मूर्छम् तटावनिरुहामिह शाखितासु तारम् समर्पयति मारुतवांशिकोऽयम् गायन्त्यमी द्विजगणा श्रुतिरम्यमुच्चने च स्वरेण समुपाश्रितनैकशाखाः त्वत्सौखशायनिक सप्तऋषि व्रजायम् अभ्येति नन्दिमुख पार्षद दत्त मार्गः भीषातवायमरुणो अर्करथम् युनक्ति तन्मुञ्चतम् तव दृगन्तरलीनमर्थम् पूर्वम् प्रबुद्ध गिरिजा तव पादपद्मे संयोज्य नैजकर पद्ममुपस्थितेयम् तद्भूतभिक्षय विभो शयनम् विमुञ्च बुद्ध्य स्वबुद्धकमुपस्पृश नित्यशुद्ध देवी कपोलतलदर्पणमेव पश्य पश्यानताग्रसुतरूपमिमम् गजेन्द्रम् स्वाभो वृषः किमथ मे दृशमङ्गलैस्ते नित्यम् यदङ्कनिलयाखिलमङ्गलाम्ब श्रीरामनाथ भुवनावन जागरूक निद्राच्छलेन तदलम् दिश दर्शनम् नः बुद्धस्वदेव नयनोन्निशितेन तेज सर्वे सुरा निजकृति प्रसुता भवन्तु धम्य प्रवृत्तिरपि सर्वजनोऽत्र भूयात् ते रामनाथ वृषकेतन सुप्रभातम् रामासहस्रशयि मे भववार्धितेऽर्थम् तिष्ठन्ति बन्धुमिहते मे क्षणोत्साह गृह्णीष्व यात्रिकशताहृतगाङ्गतीर्थम् क्षेत्रान्तरे त्वमुपयुङ्क्ष्व शिरस्थ गङ्गाम् पुरा त्वमदधाननु सत्यमद्य गङ्गाजलैश्वरिति नोपहृतैरयेतैः गङ्गाधरस्वमिति भक्तजना गृह्णन्ति श्रीरामनाथ तव पावन सुप्रभातम् रत्नाकरेण च ममोदधिना च तीर्थम् सम्मेल्य पावनतमम् परिगृह्यते पाद्याय पाशभृगसौ समुपस्थितोऽत्र श्रीरामनाथ भवते शुभ सुप्रभातम् अस्वप्रवन्त गिरय कथमत्र नूनम् त्वद्वैभवे न हि गिरीश धृतस्थ सेतुः क्षिप्तम् जले तव धनुर्वि बभारशीलान् श्रीरामनाथ भवते अद्भुत सुप्रभातम् श्रीरामनाथ भवते अद्भुत सुप्रभातम् त्वाम् सैकता कृतिमकल्पयदत्र सीता तच्चालने स हनुमानपि नैव शक्तः तत्तत्र पत्यनुगुणम् कुरु लाघवंसे श्रीरामनाथ महितं तव सुप्रभातम् काश्यामरुत्सुत समाहृत विश्वलिंग दत्ताग्र पूजन समर्दन विश्वनाथ देवी सनाथ भववारिधि सेतुनाथ श्रीरामनाथ भगवं सभ सुप्रभातम् त्वं संमहत्त्वमधिकृत्य मिथो विवादे विष्णोर्विधेश्च तदमृग्य शिरोऽङ्घ्रिलिङ्गम् यत्तैजसं तव बभू सविभीषणोऽत्र तत्स्थापकः रघुपतीडित सुप्रभातम् श्रीगन्धमादन गिरौ दृघिनौ नियोज्य यज्ञेषु तद्विमल नाम भृतं च कुण्डम् भस्मापि तद्भवमदाः प्रबलं मलघ्नम् श्रीरामलिङ्ग भगवन् तव सुप्रभातम् अन्धाय वृद्धमुनये भवता प्रदत्तम् यद्गन्धमादन गिराविह सर्वतीर्थम् तत्कायिने दिशसि यौवनमक्षिताक्षम् कामेश्वरातिमहिमम् तव सुप्रभातम् दिव्यः प्रकाशितवतः परिशुद्धिमग्नेः तीर्थोत्तमस्य महिमा कथमस्तु वन्यः यस्मिन् समक्षमिहते सततक्षिपाशः सीतापतीडित तवोज्ज्वल सुप्रभातम् रामो विभीषण कृतेऽनुपरोधमिच्छन् सेतोर्मुखं यदभिनन्य जचापकोट्या तत्राप्लुता जनततिस्तव दर्शनेच्छुः श्रीरामनाथ परमेश्वर सुप्रभातम् चापश्चतुर्दश सहस्र पलाशहायः पौलस्यः तदपदान परम्परायः कोटिः समस्तपनतीर्थमखानि कोट्या रामेण राघव कृताचन सुप्रभातम् सन्त्वाञ्जनेय कपिराजनयाः परेय स्वजनो ममेति सेवानरा स्वकपितीर्थकृतिप्रकृष्टाः तान् पश्य ते रघुपतीश्वर सुप्रभातम् प्राक् प्रत्यगत्र हि नवाश्वगदर्भसल्पमध्ये कृतम् फलमुशन्ति हि सेतुतीर्थम् सर्वं त्वदीयमहिमाङ्किततीर्थपूर्णम् श्रीराम पूजित विभो तव सुप्रभातम् श्रीराम पूजित विभो तव सुप्रभातम् नश्यन्ति पञ्च दुरितानि महाशिवाधौ पापान्तराणि च तथा लयहीनलिङ्ग अग्रे तवाभिषवणात्तव दर्शनेन श्रीरामनाथ तव पावन सुप्रभातम् तीर्थानि सन्ति कतिवान तव स्थलेऽस्मिन् तीर्थस्य तीर्थमिहते स्मृतिमामनन्ति त्वद्भावतीर्थमनुगृह्य पुनीहितः श्रीरामनाथ तव पावन सुप्रभातम् सर्वं जलं यदि हतन्न भवेद्धि तीर्थम् तीर्थं सुदन्वय गुणात्तव भक्तसङ्गात् तीर्थाप्लवे फलमपि त्वदधीनमेव श्रीरामनाथ वृषनाथ शुभ प्रभातम् त्वाम् राघवो भजदिहेत्थित सेतुहेतोः अप्स्वप्लवन्त गिरयोऽस्य तव प्रसादात् आकाशां व्यपन्नति मुमूर्षु जनस्य वक्षु तद्रामनामतियतीश रतिर्मिथो अद्वैतमेव भवतो रथवा यदुक्तम् नन्दी किमेष भगवा इति वायुसूनौ रामे च रुद्रैव मे अस्त्र बलम् सदेतत् त्याच्यम्बकस्य मम वेत्युपमाविशेद पित्रादिवाक्य परिपालन दुष्ट शिक्षा शिष्टानुपालन कृतो हृत धर्म मूर्ते स्वस्थापनाचन कृतो रघुनायकस्य श्रीरामनाथ तव वामिघ सुप्रभातम् श्रीरामनाथ सुषमां तव सुप्रभाते द्रष्टुम् प्रफुल्लनयन क्रमलेक्षणोऽसौ ब्रह्मा चतुर्वदनता बहुमन्यते स्वाम् सर्वे सहस्रनयनम् प्रति साध्यसूयाः श्रीसेतुमाधवमुखादिबुधा तथा अष्टलक्ष्म्यस्य सेतुपतिपाण्यनिपादिमुख्याः भक्तादिगन्तत इमे मिलिता समस्ताः श्रीरामनाथ परमम् तव सुप्रभातम् श्रीरामनाथ परमम् तव सुप्रभातम् अर्धे जपेन मननेन च विप्रवल्याः भर्गात्मकम् सवितृमध्य विदीप्यमानम् त्वामेव साध्य विधिना समुपासते श्रीरामनाथ तव दीयति सुप्रभातम् सन्तानकाक्षिण इमे समुपस्थिता त्वाम् तेभ्यो दिशाभिलषितानि भवन्तु पुत्राः स्वस्थापकेन पितृभक्तिगुणेषु तुल्याः श्रीरामनाथ सुगुणम् तव सुप्रभातम् यक्षारदीय नवरात्र महाचनाद्य रामादशास्य विजयम् विदधे दशम्या सा शक्तिरीश तव पर्वतवर्धनीयम् श्रीरामनाथयोरपि सुप्रभातम् प्रेमायया हि परिवेशित एष शते विद्यामयेन विभवेन तवैव बुद्धः ते पर्वतेन्द्रकुलवर्धनि मातरस्तु ते रामनाथ युवयोरपि सुप्रभातम् आवारिधे शरणमाच दशाननाथम् अत्यद्भुतम् सुबहुताधिरवाण्ययोषः योजोंशभृस्तव कपीन्द्रहिहासि गायम् श्रीरामनाथ तव मङ्गल सुप्रभातम् सम्बन्धमूर्तिरिह वाक्पतिवेश मातृभूता प्रशोणगिरिनाथ इहोपयाताः तेषाम् शृणुष्व मधुरद्रविडस्तुतिस्ते श्रीरामनाथ सुभगम् तव सुप्रभातम् श्रीरामनाथ सुभगम् तव सुप्रभातम् गीते च मन्त्रनिगमे च पटुस्समुद्दुस्वामी महीन्द्र इह पन्तु वराणि राजे त्वत्कीर्तनम् वितनुते शृणुजाग्रिवाम् श्रीरामनाथ तव सुन्दर सुप्रभातम् अध्यग्नितीर्थतटमादिमशङ्कर श्रीधाम्नस्तदन्वयसमुज्ज्वलदीपयेशः श्रीचन्द्रशेखरयति स्वरनम्यस्ते श्रीचंद्रशेखर यदि पदनन्यस्ते श्रीरामनाथ युवयोरपि सुप्रभातम् सत्कामकोटिवरपीठगुरुप्रसाद चैत्रोत्कलीकलितराघवकोकिलोऽयम् उत्पूजतीह तव कोमलसुप्रभातम् श्रीमातृभूतसमुदञ्चय दृग्विलासान् कैलासतस्ततयिता रघुनाथ सेतोः भूर्भारतीयमखिलापि सवैवगेहम् सद्रक्षवासमिलमाहित सर्वयोधक्षेमम् सदा विजयताम् शिवमस्तु सर्वम् योगक्षेमम् सदा विजयताम् शिवमस्तु सर्वम् शिवमस्तु सर्वम् स्वसुप्रभातजनिता हृदयाः समस्ता लोका भवन्तु सुखिनो विरुजस्तु भिक्षाः हिंसाम् विहाय विविधा धृतमैत्रभावाः श्रीरामनाथ कृपया दिश विश्वशान्तिम् श्रीरामनाथ कृपया दिश विश्वशान्तिम् दिश विश्वशान्तिम् रामनाथम् भजेऽहम् रामचन्द्रपूजितम्
Come on.
மேல தரம் கேலதரம் சத்யாதிபதம் சோகாகாரம் காமநாதம் பஜேகம் ராவகம் ஜெயம்